श्रोतारः हृदि अनेकान् प्रसंगान् समाविश्य विचारान् च आधृत्य आगतास्मि कार्यक्रमस्योद्घोषिका निधि तिवारी। मम प्रणामः भवन्तः सर्वे स्वीकुर्वन्तु। अस्तु, एकस्मिन् वृक्षे यथा अनेक प्रकारकाः उत्पादाः भवन्त्येव तथैव एतस्मिन् कार्यक्रमेऽपि नैके प्रभागाः समाविष्टाः पल्लविताः पुष्पिताश्च भवन्ति। समाविष्ट प्रभागेष्वेव प्रथमानुभागः सुभाषितमेति ज्ञानभरितः पूरितः च प्रकल्प्यते मम सहयोगिनया निधिना।
आयुषः क्षण एकोऽपि सर्वरत्नैर्न लभ्यते, नीयते तद्वृथा येन प्रमादः सुमहानहो।
रमणीय सुभाषित क्रमानन्तरं क्रमः समागतः प्रसंगानुभागस्य। रिंकू जोशी नामाख्यया शृण्वन्तु तावत् शिव श्लोकेन प्लावितो अयं प्रभागः।
मनोबुद्ध्यहंकार चित्तानि नाहं न च श्रोत चित्वे न च घ्राण नेत्रे न च व्योम भूमे न तेजो न वायो चिदानन्द रूपः शिवोऽहं शिवोऽहं चिदानन्द रूपः शिवोऽहं शिवोऽहं चिदानन्द रूपः शिवोऽहं शिवोऽहं चिदानन्द रूपः शिवोऽहं शिवोऽहं चिदानन्द रूपः शिवोऽहं शिवोऽहं।
श्रोतारः, अधुना कार्यक्रमस्य साप्ताहिकी वार्तान्तर्गतं विगत सप्ताहस्य घटनाक्रमाः विषयाश्च प्रवदति अस्माकं सहयोगिनी कामना झाः। अस्तु तावत् वार्तां कर्णगोचरी कुर्वन्तु भवन्तः।
विगत सप्ताहे राष्ट्रपति भवने एकस्मिन् नागरिक अलंकरण समारोहे राष्ट्रपतिना पद्म पुरस्काराः प्रदत्ताः। प्रधानमन्त्रिणा नरेन्द्र मोदिना चतुरङ्गस्य विलक्षण प्रतिभया अलंकृतस्य गुकेश डी इत्यस्य उत्कृष्ट प्रदर्शनस्य प्रशंसा कृता। उच्चशिक्षायां QS इति वैश्विक मानाङ्कने भारतस्य प्रदर्शनम् उत्साहवर्धकम् इति ब्रूते प्रधानमन्त्री नरेन्द्र मोदी। यूरोपीय देशानां संघेन वीजा इति परागमन अनुमति पत्र विषयम् अभिलक्ष्य नूतनाः नियमाः प्रख्यापिताः। देहरादून नगरे राष्ट्रपति पदारूढा द्रौपदी मुर्मू भारतीय वन्य सेवायाः दीक्षांत समारोहे जलवायु परिवर्तन सम्बद्ध समस्यानां निवारणे वन संरक्षण भूमिकाः प्रख्यापितवती।
श्रोतृगणाः, आयान्तु ज्ञान विज्ञान विभागं प्रति यामः। अद्यतनस्य ज्ञान विज्ञानस्य काचित् विशिष्टता विद्यते। विशिष्टजनस्य परिचयेन सह अत्र उपस्थितोऽस्ति अस्माकं सहयोगी पुनीत त्रिपाठी।
श्रोतारः, अद्य अस्माभिः सह आकाशवाण्यां समुपस्थिताः सन्ति संस्कृतानुरागी सेवकस्य डॉक्टर SA प्रसाद महोदयः। नमस्काराः महोदयाय, सुस्वागतम् अस्ति अत्र भवताम्।
नमस्ते पुनीत महोदय, आमन्त्रणार्थं धन्यवादाः।
महोदय, भवता अभियान्त्रिक जगतः स्नातको वर्तते, तदनन्तरं देहरादूनस्य यूनिवर्सिटी ऑफ पेट्रोलियम एंड एनर्जी स्टडीज इत्यस्मात् विश्वविद्यालयात् विद्यावारिधेः उपाधिः गृहीता। विदेशेभ्यः अपि भवता अनेकाः उपाधयः अभिस्वीकृताः। तावत् कथं संस्कृतविषयं प्रति रुचिः जागृता भवतः मनसि?
मम मूलगृहं केरलराज्ये अस्ति, ततः अहं 30 वर्षपूर्वमेव पठनार्थम् उद्योगार्थं च बहिः गतवान्। गत 8 वर्षेभ्यः अहं मुम्बई नगर्यां निवसामि। इदानीम् अत्र मुम्बई नगर्यां पवै इति उपनगर्यां अहं निवसामि। अहं तु मम मनसि पठनं तु कृतवान् एव, किन्तु कश्चन अभावः आसीत् मम जीवने इति चिन्तनं कृत्वा एव वर्षचतुष्टयपूर्वमहं संस्कृतपठनम् आरम्भं कृतवान्। अत्र संस्कृतभारती इति सङ्घटनमस्ति, तेषां संस्कृतसम्भाषणशिबिरं नवविंशत्यधिकद्विसहस्रतमे वर्षे ते IIT मध्ये प्रथम शिबिरं कृतवान् सम्भाषण शिबिरं तत्र दशदिन शिबिरं गत्वा एव मम संस्कृतपठनस्य आरम्भः जातः तस्मिन् शिबिरे केचन IIT छात्राः अपि आसन् तैः सह मिलित्वा मम संस्कृतविषये रुचेः आरम्भः जातः तदनन्तरमहं संस्कृतभारत्याः प्रवेशपत्राचारद्वारा संस्कृतम् इति पाठनपद्धतिः अस्ति ततः अहं प्रवेश शिक्षा परिचय कोविदः इति स्तरचतुष्टयमस्ति तद् पठितवान् इदानीम् अहं केन्द्रीयसंस्कृतविश्वविद्यालयस्य दक्षता पाठ्यक्रमस्य मुख्यस्वाध्यायपीठस्य डिप्लोमा इति पठनं कुर्वन् अस्मि संस्कृतभारत्याः भिन्न कोङ्कणप्रान्तस्य संस्कृतभारत्याः गीता प्रवेश इति कार्यक्रम इति पाठन पठन पद्धतिः अस्ति तत्र अपि अहम् इदानीं पञ्जीकरणं कृत्वा आन्लैन् मार्गेण गीता पठनमपि कुर्वन् अस्मि
सुष्ठुक्तं भवता भारतीय ज्ञान परम्परायाः संवर्धनाय विकासाय च मुम्बय्याः IIT IIM पाठ्यक्रमान्तर्गतमपि कार्यं समनुष्ठितम् तादृशेषु स्थलेषु कार्यसम्पादनाय भवतः मनसि कथं विचाराः समागताः तत्र कृतकार्याणां परिणामाः अपि उल्लेखयन्तु भवान्
IIT मध्ये छात्राः संस्कृतं पठन्ति चेत् तस्य भिन्न प्रभावः भवति तान् दृष्ट्वा नूतनजनाः ये समाजे जनाः सन्ति ते अपि संस्कृतपठनाय रुचिं दर्शयन्ति IIT छात्राः अपि पठनानन्तरम् उद्योगार्थं व्यवसायार्थम् अन्यकार्यार्थं ते बहिः गच्छन्ति विविधराज्येषु विविधराष्ट्रेषु अपि केचन विदेशमपि गच्छन्ति तत्रापि ते संस्कृतप्रचारकाः भवन्ति अतः तत्र प्रथमं वयं संस्कृतपठनारम्भं कुर्मः इति मम मनसि चिन्तनमासीत् तस्य कृते IIT मध्ये एव केचन शिक्षकाः सन्ति प्राध्यापकाः सन्ति ते अस्माकं सहायं कृतवन्तः अहम् उक्तवान् एव पूर्वं विश्वकेन्द्रीयसंस्कृतविश्वविद्यालयस्य एव सहायम् आसीत् तत्र अनौपचारिकसंस्कृतकेन्द्रस्य आरम्भं कर्तुं तदनन्तरम् इण्डियन् इन्स्टिट्यूट् आफ् मेनेज्मेण्ट् भारतीय प्रबन्धन संस्थाने अपि आरम्भं कृतवन्तः अत्र पोवै इति उपनगर्यां चन्द्रभान् शर्मा इति एक उच्चविद्यालय महाविद्यालयमस्ति जूनियर् कालेज् एण्ड् आर्ट्स् एण्ड् सैन्स् कालेज् तत्रापि वयम् आरम्भं कृतवन्तः अत्र बहवः विद्यालयाः सन्ति तत्रापि वयम् IIT केन्द्रीकरणं कृत्वा ततः अस्माकं स्वयंसेवकाः सन्ति ते सर्वत्र गत्वा निःशुल्करूपेण इदानीं संस्कृतं पाठयन्तः सन्ति अस्माकं पवै मध्ये अय्यप्पा विष्णुमन्दिरमस्ति तत्रापि साप्ताहिके एकवारं जनाः आगत्य संस्कृतं पठन्तः सन्ति इदानीं महोदय एतस्य कृते अहम् एकं सुभाषितं वदामि विना वेदं विना गीतां विना रामायणीं कथां विना कविं कालिदासं भारतं भारतं नास्ति अस्माभिः अस्माकं बालकान् अल्पवयसि एव अस्माकं संस्कृतेः भाषायाः च समृद्धिम् अवगन्तुं भवति एते सर्वे ग्रन्थाः संस्कृतेनैव लिखिताः सन्ति नवीनशिक्षानीतिः न्यू एजुकेशन् पालिसि 2020 यथा अहम् अवगच्छामि संस्कृते विशेषध्यानं ददाति भारते सर्वेषु विद्यालयेषु भाषारूपेण संस्कृतं पाठितव्यम् इति मम चिन्तनम् यदि वयं यद् कुर्मः चेत् इदानीम् आरम्भं कुर्मः चेत् अग्रिमे 25 वर्षेषु भारतं यदा 2047 अस्माकं प्रधानमन्त्रेः आशा अस्ति भारतं डेवलप्ड् नेशन् भवति इति स्वातन्त्र्यस्य अमृतकालः इति स्वातन्त्र्यानन्तरम् अमृतकालः इति अस्माकं प्रधानमन्त्री सर्वदा वदति एव तस्य एतस्य लक्ष्यपूर्तीकरणाय संस्कृतस्य विशेष योगदानम् अस्ति एव एतस्य कृते वयं सर्वे निश्चयेन वयं सर्वे कार्य निरताः भवामः।
महनीयं कार्यं सम्पादितं भवता, शोभनं तावत् अग्रे चलामः। महोदय, मयापि ज्ञातं यत् भवानपि 99,000 संस्कृतभाषावगमनं करोति, साम्प्रतम् एकस्य अभियानस्यापि नेतृत्वं विदधाति। अभियानविषये किमपि प्रकाशयन्तु।
सम्प्रति 1,000 मुखेषु संस्कृतम् इति उपक्रमः अस्माकं मुम्बई मध्ये पवै इति उपनगर्यां प्रचलन् अस्ति। 1,000 जनाः अत्र पवै निवासिनः ये सन्ति ते संस्कृतेन वदेयुः 2024 डिसेम्बर् मास पर्यन्तम्, बै 2024 डिसेम्बर् 1,000 जनाः संस्कृतेन वदेयुः इति अस्माकं कार्यक्रमस्य रूपरेखा। एतस्य कृते बहवः अत्र आन्लैन् प्रत्यक्ष कक्ष्याः अत्र प्रचलन्तः सन्ति एव। अस्माकम् अय्यप्पा विष्णुमन्दिरमस्ति पवै मध्ये, प्रसिद्ध अय्यप्पा विष्णुमन्दिरमस्ति हरि ओम् नगर इति स्थाने। तत्र साप्ताहिके एकवारं 30 छात्राः आगत्य संस्कृतं पठन्तः सन्ति इदानीम्। IIT मध्ये अहं पूर्वमेव उक्तवान् 200+ छात्राः संस्कृतं पठन्तः सन्ति। IIM मुम्बई तदपि पवै मध्ये एव अस्ति, तत्रापि प्रायशः 15+ छात्राः संस्कृतं पठन्तः सन्ति। चन्द्रभान शर्मा कॉलेज इति एकः अत्र विश्वविद्यालयः उच्चविद्यालयः अस्ति, जूनियर् कॉलेज, तत्रापि प्रायशः 60 छात्राः संस्कृतं पठन्तः सन्ति। स्वयंसेवकाः सन्ति ये शिक्षकरूपेण अन्यान् निःशुल्करूपेण संस्कृतं पाठयन्तः सन्ति। एतादृशं कार्यं कृत्वा संस्कृतं व्यवहारभाषा भवेत् इति अस्माकं लक्ष्यं प्रथमम्। किमर्थं संस्कृतं केवलं पुस्तके श्लोकपठनानां पठनस्य कृते, भागवते, अस्माकं वेदे, उपनिषत्, तादृशं केवलं पुस्तके न तिष्ठतु, किन्तु स्थातव्यं, किन्तु अस्माकं व्यवहारभाषा भवेत् प्रथमम् इति अस्माकं लक्ष्यम्। अतः एव इदानीं बहवः अस्माकं स्वयंसेवकाः कार्यं कुर्वन्तः सन्ति। एतस्य कृते केरलातः धर्मशाला, केरलातः विश्वसंस्कृतप्रतिष्ठानं, कर्णाटकतः चित्रकूर् मठ, अस्माकं कोङ्कणप्रान्तस्य संस्कृतभारती, बहवः बहूनि संस्थानानि अस्माकं कृते इदानीम् आन्लैन् मार्गेण अपि, उत्तरप्रदेशसंस्कृतसंस्थानम् अस्माकं कृते कक्ष्याः ते आन्लैन् मार्गेण अपि कुर्वन्तः सन्ति। अस्माकं लक्ष्यं 1,000 मुखेषु संस्कृतम् इति। धन्यवादः
महोदय। साक्षात्काराय अस्मै भवता प्रदत्त प्रकल्पित समयाय आकाशवाणी पक्षतः धन्यता वचांसि व्याहरामि। धन्यवादः, नमो नमः।
धन्यवादः निधि पुनीतौ, आकाशवाणी दलाय च नमो नमः।
महत् सौभाग्यस्य विषयो विद्यते महोदयाय, साधुवादाः, धन्यवादाश्च। प्रिय मित्राणि, संस्कृत सेवारतैः, समाराधकैः यथासमयं यथास्थानं च संस्कृत विषयक कार्यक्रमाः, संगोष्ठ्यः, कार्यशालाश्च समनुष्ठीयन्ते। अधुना वयम् अवलोकयामः यत् आदेशे केषुचित् राज्येषु स्थलेष्वपि के कार्यक्रमाः अनुष्ठिताः, समायोज्यन्ते, विधास्यन्ते च। संस्कृत दिग्दर्शन नामाभिधेयकम् अनुभागम् उचितरीत्या प्रस्तौति अस्माकं समकक्षिणी सुषमा कुमारी।
दरभंगा तरौनी नागार्जुन उमेश संस्कृत महाविद्यालये महावीर जन्म कल्याणकस्य पूर्वसन्ध्यायां जैन दर्शनस्य उपादेयता विषयमाधृत्य व्याख्यानात्मकस्य कार्यक्रमस्य एकस्य आयोजनं विहितम्। जनकपुरे नवदिल्लीस्थ केन्द्रीय संस्कृत विश्वविद्यालये विश्व पृथ्वी दिवसः आमानितः। दरभंगा संस्कृत विश्वविद्यालये स्नातकोत्तर व्याकरण विभाग द्वारा पैट इति परीक्षायाः कृते अभ्यर्थिनां विषये साक्षात्कारमेकं समायोजितम्। अन्तर्वीक्षायाः कृते 13 अभ्यर्थिनः समाहूतवन्तः। नवदिल्लीस्थ केन्द्रीय संस्कृत विश्वविद्यालये विश्व पुस्तक प्रतिलिप्यधिकार दिवस कार्यक्रमः समायोजितः। गोरखपुर विश्वविद्यालये श्री भगवान महावीर स्नातकोत्तर महाविद्यालये काव्यशास्त्रस्य परम्परायाम् एवं सांगोपांग काव्ये महत्ता इति विषयमालक्ष्य विशिष्टं व्याख्यानमेकं सुसम्पन्नम्। गुजरात साहित्य अकादमी गांधीनगरम् एवं श्री सोमनाथ संस्कृत विश्वविद्यालय वेरावलम् इत्यनयोः संयुक्त तत्वावधाने आयोजिता त्रिदिवसीया राष्ट्रीय कार्यशाला एका शत दर्शन शास्त्र सपर्या इति विषयमाधृत्य सुसंपन्ना जाता।
प्रियाः निर्मल मनयुताः बालाः संस्कृत साप्ताहिकीति कार्यक्रमः बालवल्लरी प्रभागेण विना अपूर्णो वर्तते। बालानां सुखबोधाय एव प्रकल्पिता इयं बालवल्लरी अद्यतने बालवल्लरी प्रभागे गणेश हेगडेः भवतां कृते नीति शास्त्रोपयुक्तां कथां एकां श्रावयति।
नमो नमः बालाः, अद्याहं एकां नीतियुक्तां लघुकथां श्रावयामि। कथायाः शीर्षकमस्ति काकस्य उपायः। एकस्य वृक्षस्य शाखासु अनेके काकाः वसन्ति स्म। तस्य वृक्षस्य कोटरे एकः सर्पः अपि अवसत्। काकानाम् अनुपस्थितौ सर्पः काकानाम् शिशून् खादति स्म। काकाः दुःखिताः आसन्। तेषु एकः वृद्धः काकः उपायम् अचिन्तयत्। वृक्षस्य समीपे जलाशयः आसीत्। तत्र एका राजकुमारी स्नातुम् जलाशयम् आगच्छति स्म। शिलायाम् स्थितम् तस्याः आभरणम् आदाय एकः काकः वृक्षस्य उपरि अस्थापयत्। राजसेवकाः काकम् अनुसृत्य वृक्षस्य समीपम् आगच्छन्। तत्र ते राजसेवकाः तम् सर्पम् च अमारयन्। अतः एव उक्तम् उपायेन सर्वम् सिद्ध्यति।
प्रियाः श्रोतारः, बालवल्लरी प्रभागात् पश्चादेव जनकल्याणाय सम्यक् बोधाय च भारतस्य रमणीय भाषाणाम् शब्दगुम्फनम् शेष निष्पादनेन साकं सम्पादयति अस्मत् सहयोगी कृष्णप्रसादोपाध्यायः।
मम नाम कृष्णप्रसादः, भवतः नाम किम्? संस्कृतभाषायाम् मोर नाम कृष्णप्रसादः, अपनार नाम की? असमी भाषायाम् मेरो नाम कृष्णप्रसाद हो, तपाईंको नाम के हो? नेपाली भाषायाम् मारो नाम कृष्णप्रसाद छे, तमारो नाम शू छे? गुजराती भाषायाम् माझे नाव कृष्णप्रसाद आहे, तुझे नाम काय आहे? मराठी भाषायाम् आमार नाम कृष्णप्रसाद, तुम्हार नाम की? बांग्ला भाषायाम् हमार नाम कृष्णप्रसाद ह, तुहार नाम का ह? भोजपुरी भाषायाम् हमर नाम कृष्णप्रसाद, अहाक नाम की अछि? मैथिली भाषायाम् एन पेर कृष्णप्रसाद, उंकल पेर इन्ना? तमिल भाषायाम् ना पेरु कृष्णप्रसाद, नी पेरु इमेति? तेलुगु भाषायाम् लौकिक संस्कृत साहित्य के आदि कवि महर्षि वाल्मीकि है। हिंदी भाषायाम् लौकिक संस्कृत साहित्यस्य आदि कवि ही महर्षि वाल्मीकि ही अस्ति। संस्कृत भाषायाम् लौकिक संस्कृत साहित्यानि की मूल कवि वाल्मीकि महर्षि। तेलुगु भाषायाम् मदच्चरपच संस्कृत इलक्कीयति असल कविनर महर्षि वाल्मीकि। तमिल भाषायाम् लौकिक संस्कृत साहित्य नाम मूल कवि महर्षि वाल्मीकि छे। गुजराती भाषायाम् लौकिक संस्कृत साहित्याचे मूल कवि महर्षि वाल्मीकि आहेत। मराठी भाषायाम् जात्यतीत संस्कृत साहित्यदा मूल कवि महर्षि वाल्मीकि। कन्नड मदेदर संस्कृत साहित्य थिंते यदार्थ कवि महर्षि वाल्मीकि ज्ञान। मलयालम भाषायाम् लौकिक संस्कृत साहित्यर मूल कवि महर्षि वाल्मीकि। असमिया भाषायाम् लौकिक संस्कृत साहित्यर आदि कवि महर्षि वाल्मीकि। बांग्ला भाषायाम्
शोभनम् तावत् श्रोतारः कार्यक्रमम् अवसानम् प्रतियाति। आशास्ति यत् संस्कृत साप्ताहिकीति कार्यक्रमस्य अयम् नूतनः अङ्कः भवद्भ्यः सर्वेभ्यः रोचते। आगामि सप्ताहे नवीन विषयान् प्रसंगान् उररीकृत्य अत्रैव एतस्मिन्नेव काले पुनर्मिलामः। भवन्तः सर्वे स्वीय प्रतिक्रियाः nsdsanskrit@gmail.com इत्यत्र सम्प्रेष्य अस्मान् प्रेरयन्तु कृपया। तावत्पर्यन्तम् नमो नमः, जयतु संस्कृतम्, जयतु भारतम्।